ॐ अथ श्री गजेन्द्र मोक्ष स्तोत्रम्। श्री शुक उवाच। ॐ एवं व्यवसितो बुद्ध्या समाधाया मनो हृदि जजाप परमं जाप्यं प्राग्मन्यन्यनुशिक्षितं। गजेन्द्र उवाच। ॐ नमो भगवते तस्मै यत् एतच्चिदात्मकं पुरुषायादि बीजाय परेशाया विधीमहि यस्मिन्निदं यतश्चेदं येनेदं या इदं स्वयं योऽस्मात् परस्माच्च परस्तं प्रपद्ये स्वयंभुवं। यः स्वात्मनिदं निजमाययार्पितं क्वचिद्विभातं क्वचतद्तिरोहितम् अवेद्रुकः साक्षुभयं तदीक्षते स आत्ममूलोऽवतु मां परात्परः। कालेन पञ्चत्वमितेषु कृष्णनो लोकेषु पालेषु च सर्वहेतुषु तमस्तदासीद् गहनं गभीरं यस्तस्य पारेऽभिविराजते विभुः। न यस्य देवा ऋषया पदं विदुर्जन्तु पुनः कोऽर्हति गन्तुमीरितुं यथा नटस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणा समावतु। दिद्रक्षवो यस्य पदं सुमङ्गलं विमुक्तसङ्गा मुनया सुसाधवा चरन्त्यलोकवृतमवृणं वने भूतात्मभूता सुहृदा समे गते। न वेद्यते यस्य च जन्म कर्म वा न नामरूपे गुणदोष एव वा तथापि लोकाप्ययसंभवायया स्वमायया तान्यनुकालमृच्छति। तस्मै नमः परेशाय ब्रह्मणे नन्तशक्तये अरूपायोरूपाय नमः आश्चर्यकर्मणि। नमः आत्मप्रदीपाय साक्षिणे परमात्मने। नमो गिरां विदुराय मनसश्चेतसामपि सत्त्वेन प्रतिलभ्याय नैष्कर्मेण विपश्चिता। नमः कैवल्यनाथाय निर्वाणासुखसंविदे। नमः शान्ताय घोराय मूढाय गुणधर्मिणे निर्विशेषाय साम्याय नमो ज्ञानघनाय च क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे पुरुषायात्ममूलाय मूलप्रकृतये नमः। सर्वेन्द्रियगुणदृष्टे सर्वप्रत्ययहेतवे आसताक्षाय योक्ताय सदाभासाय ते नमः। नमो नमस्ते खिलकारणाय निष्कारणायाद्भुतकारणाय सर्वागमाम्नाय महार्णवाय नमोपवर्गाय परायणाय गुणारणिच्छन्न चेदूष्मपाय तक्षोभविस्फूर्जितमानसाय नैष्कर्म्यभावेन विवर्जितागमा स्वयं प्रकाशाय नमस्करोमि। मादृक् प्रपन्न पशुपास विमोक्षणाय मुक्ताय भूरि करुणाय नमो लयाय स्वांसेन सर्वतनुभृन्मनसि प्रतीता प्रत्यग्दृशे भगवते बृहते नमस्ते। आतात्मजाप्तग्रहवीतजनेषु शक्तेर्दुष्प्रापणाय गुणसङ्गविवर्जिताय मुक्तात्मभि स्वहृदये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय। यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति किं त्वाशिशोरात्यपि देहमव्ययं करोतुमेदहृदयो विमोक्षणम् एकान्तिनो यस्य न कञ्चनार्थं वाञ्छन्ति एवे भगवत्प्रपन्नः अत्यद्भुतं तच्चरितं सुमङ्गलं गायन्त आनन्दसमुद्रमग्नः तमक्षरं ब्रह्म परं परेशमव्यक्तमाध्यात्मिकयोगगम्यम् अतीन्द्रियं सूक्ष्मविवाति दूरा मनन्तमाद्यं परिपूर्णमीडे यस्य ब्रह्मादयो देवा वेदालोकश्चराचरः नामरूपाविभेदेन फल्क्व्या च कलया कृतः यथार्चिसोऽग्ने सवितोर्कवस्तयो निर्यान्ते संयान्यसकृे स्वरोचिसा तथा यतोऽयं गुणसंप्रवाहो बुद्धिर्मनखानि शरीरसर्गः स वेन देवा स्वरमर्त्यतिर्यं न स्त्री न षण्डो न पुमान् न जन्तु नायं गुणकर्म न सन् न चासन् निषेदशेषो जयतादशेषः जिजेविसेनाहमिहामुयाकी अन्तर्बहिश्चावृतये भयोन्या इच्छामि कालेन न यस्य विप्लव स्तस्यात्मलोकावरणस्य मोक्षम् सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसं विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदम् योगरन्दितकर्माणो हृदियोगविभाविते योगिनोऽयं प्रपश्यन्ति योगे सन्तं नतोऽस्म्यहम् नमो नमस्तुभ्यमसह्यवेगा शक्तेत्रयायाखिलदिगुणाय प्रपन्नपालाय दुरन्तशक्तये कदीन्द्रियाणामनवाप्यवर्त्मनि नायं वेदस्वमात्मानं यच्छक्त्याहन्दियाहतं तं दुरत्यये माहात्म्यं भगवन्तमितोऽस्म्यहम् श्रीशुक उवाच एवं गजेन्द्रमुपवर्णितनिर्विशेषं ब्रह्मादयो विविधलिङ्गविदाभिमानः नैते यदोपसस्रपूर्निखिलात्मकत्वात् तत्राखिलमर्मयो हरिराविरासीत् तं तद्वदार्थमुपलभ्य जगन्निवास स्तोत्रं निशम्य दिविजये सहसंस्तुवद्वि छन्दोमयेन गरुडेन समुह्यमाना चक्रायुधो व्यगमदासु यतो गजेन्द्र सोऽन्तः सरस्युरुबलेन गृहीत आर्तो दृष्ट्वा गरुत्मति हरिखौपात् चक्रम् उक्षेप्य साम्बुजकरं गिरमाहकृच्छ्र नारायणाखिल गुरो भगवन् नमस्ते तं वीक्ष्य पीडितमज सहसावतीर्य सग्राहमासु सरसा कृपयो जहार ग्राहाद् विपाटित मुखा दरिडों गजेन्द्र सम्पश्यतां हरिरमुमुचदो स्त्रियाणाम् ॐ अथ श्री गजेन्द्र मोक्षस्तोत्रं सम्पूर्णम्।